ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ श्रीगुरुभ्यो नमः धन्यवादः महोदय
धन्यवादः भगिनी सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र पञ्चमी षष्टि सप्तमी विभक्तयः हलन्तपदानाम् अस्मिन् विषये वयम् एकां कथां तत्र सत्यजितः कथां पठितवन्तः अवगतवन्तः अपि तत्र अभ्यासमपि तत्र केचन काञ्चन अभ्यासानपि कृतवन्तः इदानीम् अहं चिन्तयामि तत्र कुत्र स्मः इदानीं तत्र
त्रिंशत्तमे
पुटे लक्ष्मी भगिनी नमस्कारः हा त्रिंशत्तमे अस्तु लक्ष्मी भगिनी नमस्कारः नमस्कारः भगिनी अस्तु त्रिंशत्तमे पुटे इदानीं तत्र आरम्भं कुर्मः तत्र तस्मात् प्राक् अहं चिन्तितवान् तत्र केवलम् अभ्यासार्थं सर्वे किञ्चित् तत्र निमिषं यावत् संस्कृतेन वदन्तु इति केवलं निमिषं यावत् वक्तव्यमस्ति अपि संस्कृतेन एव वक्तव्यं श्रीप्रिया भगिनी नमस्कारः अस्तु अतः तत्र तत्र टैमिङ्ग् इति अहं पश्यामि किन्तु तत्र निमिषस्य समीपे तत्र प्रायशः किं वाक्यत्रयं वाक्यचतुष्टयं वा अथवा तादृशं किन्तु संस्कृतेन वक्तव्यं तत्र सर्वे कुर्वन्तु यतोहि तस्मात् बहु लाभः अस्ति अतः तत्र किन्तु तत्र एकः नियमः अस्ति सः नियमः कः इत्युक्ते यस्य ज्ञानम् अस्ति तस्य ज्ञानेन एव वक्तव्यं तत्र एतत् कथं वक्तव्यम् इति तादृशं मास्तु यद् वयं जानीमः तम् उपयुज्य एव वक्तव्यं यदि न जानन्ति तत्र आङ्ग्लभाषायां किमपि वदन्तु चिन्ता मास्तु किन्तु आधिक्येन संस्कृतवाक्यं भवतु अस्तु तत्र कः अथवा का आरम्भं करोति
शोभा भगिनि
अस्तु शोभा भगिनी तत्र
मम प्रथमवाक्यं भगिन्याः कृते एव महोदय भगिनी किमर्थं अहं प्रारम्भं करणीयं
तदेव तदेव किञ्चित् अधिकं वदतु भगिनि
शोभा भगिनी बहु श्रेष्ठा अस्ति सम्भाषणे
न न न न न भगिनि
अहं मन्ये
धन्यवादः धन्यवादः सा तु नास्ति प्रयत्नं कुर्वन्ती अस्मि कुर्वती अस्मि सर्वेषां सह न
सहायेन
सर्वैः अस्तु न न वित् अलाङ्ग् वित् एव्री वन्
सर्वैः सह अहमपि प्रयत्नं कुर्वती अस्मि
आम् अपि च किं अस्तु अहम् अद्य व्याकरण
भगिनी यदि इदानीं वक्तुं न इच्छति अग्रे अपि वक्तुं शक्यते चिन्ता मास्तु
अस्तु अधुना अहं सिद्धा नास्मि क्षम्यताम्
अस्तु अतः एव अन्य कोऽपि वदतु तदनन्तरं भवती अपि वदतु भगिनि केवलं तत्र आरम्भे किमपि तत्र केटलिसम् आवश्यकं खलु अस्तु उषा भगिनि आरम्भं करोतु
अद्य प्रातःकाले उत्थाय चलनक्रियां कृतवती अनन्तरं दशवादने होल् फुड् गत्वा सेवफलं क्रीतवती अपि च शिशुः कृते पञ्चवारं दुग्धं शिशोः पञ्चवारं दुग्धं दत्तवती न महोदय
शिशुना
शिशुभ्यां शिशुभिः
शिशवे
शिशवे गुरवे शिशवे दुग्धं दत्तवती अपि च व्याकरणं गृहपाठमपि कृतवती किञ्चित्
अस्तु भगिनि समीचीनम् अस्तु धन्यवादः अस्तु अग्रे कः अथवा का वक्तुमिच्छति केवलम् एकनिमिषं यावत् वाक्यत्रयं
किञ्चित् प्रयत्नं करोमि
तदेव केवलं प्रयत्नम् अपेक्षितं तावदेव प्रयासः अपेक्षितः
भगिनी उक्तवती सः तदेव अद्य प्रातःकाले उत्थाय स्नानं कृतवान् तदनन्तरं पूजां कृतवान् कार्यं सङ्गणकम् उद्घाट्य कार्यं कृतवान् सायङ्काले बहिः गत्वा आपण गत्वा फलानि या क्रीतवान् अद्य अपि अन्य आपणे अस्मि तदनन्तरम् अहं अहं गृहं गमिष्यामि
अस्तु महोदय बहु समीचीनम् अस्तु धन्यवादः अस्तु धन्यवादः महोदय अस्तु अग्रे अन्य कोऽपि अन्य कोऽपि वदति वा अस्तु वेदा भगिनि अस्तु
अद्य अहं प्रातःकाले सप्तवादने लेब् किं प्रयोगशाला वा प्रयोगशाला लेब् लेब् तत्र लेब् गतवती तत्र आन्युवल् फिसिकल् ऐ डोण्ट् नो व्हाट् टु से
अस्तु वैद्यं गत्वा
तत्र पुनः गृहम् आगच्छति पुनः गृहम् आगतवती तत्पश्चात् स्नानं कृत्वा श्लोकान् पठित्वा मन्दिरं गतवती
अस्तु भगिनि समीचीनम् अस्तु धन्यवादः समीचीनं अस्तु अग्रे
महोदय
अस्तु लक्ष्मी भगिनी वदतु तदनन्तरं ललिता भगिनी वा अस्तु
ह्यः चेन्नै नगरे एलेक्षन्
आसीत् निर्वाचनम् इति मन्ये
निर्वाचनम् आसीत् अहं मम पत्युः सह जी के शेट्टि विद्यालये गत्वा वोट्
तत्र स्थापितवती
वोटिङ्ग् कृतवत्यौ
कृतवन्तौ
द्विवचने कृतवती भवति वा महोदय
किन्तु तत्र पत्युः इति उक्तवती अतः
एक त्रिलिङ्गम् एक पुल्लिङ्गं त्वं किं वदति तत्र
यदि तत्र लिङ्गमिश्रणम् अस्ति चेत् तत्र तत्र किं
पुंलिङ्गे एव भवति
पुल्लिङ्गे तत्र इति अस्ति
कृतवत्यौ एव भवति वा
स्त्रीलिङ्गे अस्ति चेत् कृतवत्यौ तत्र यदि महिलापुरुषः अस्ति चेत् तत्र कृतवन्तौ इति साधारणतया वदन्ति
बहुवचने महोदय द्विवचने अस्ति
चेत् कृतवान् कृतवन्तौ खलु
कृतवन्तौ कृतवन्तः बहुवचने
बहुवचने अपि अग्रे भगिनि
तदनन्तरं मम पतिः मम पुत्र्याः गृहं गतवान् अनन्तरं
अस्तु भगिनि धन्यवादः समीचीनं वंशीसुधा भगिनी नमस्कारः सर्वे तत्र निमिषं यावत् वदन्ति संस्कृतेन वदन्ति सन्ति अस्तु तत्र इदानीं तत्र किं भगिनि किमपि कोऽपि विषयः भवति
कति वाक्यानि वक्तव्यानि
एकनिमिषं यावत्
इदानीं महाराष्ट्रनगरे विशेषतया मम हलो प्रदेशे विशेषतया मम गृहसमीपे इत्युक्ते अन्धेरी नगर्यां अन्धेरीनगरीं समीपे
नगरस्य
समीपे नगरस्य समीपे कोरोना महामार्याः सम्भवः अधिकः जातः प्रतिवेशिनः गृहे मम अग्रहारस्य मध्ये प्रतिवेशिनः गृहे एकः वृद्धः बाधितः अस्ति इदानीं किमपि भयम् उद्भवम् अस्ति
तत्र सर्वे भीताः
मनसि
मनसि
सर्वे भीताः सन्ति
सत्यं भगिनि तत्र गृहस्य अन्ते एव सर्वे सन्ति वा अथवा
सर्वे गृहस्य अन्ते एव सन्ति परन्तु मम पुत्री किमपि शी शाप्स् फार् वेजिटेबल्स् शी गोस् औट्सैड् गृहस्य
गृहः गच्छति अस्तु भगिनि धन्यवादः धन्यवादः भगिनि नमस्कारः
नमस्सर्वेभ्यः इदानीम् अहं वदामि मम नाम मीना आमां मम नाम मीना एतत्तु मम कृते नूतनं वर्गः अस्ति अहं पूर्वं गीतासोपानं प्रथमभागस्य अभ्यासं अस्माकं पुण्यपतने पुणेनगरे महाराष्ट्रराज्ये कृतवती संस्कृतभारत्याः अहं मूलतः मम शिक्षणं गणितविषये अस्ति अहं पूर्वम् अभियान्त्रिकी महाविद्यालये गणितविषयं पाठितवती इदानीं गृहे स्थित्वा एव मम अभ्यासं प्रचलन् अस्ति इदानीं संस्कृत विषयस्य भारतीयगणितम् अपि इति एकं उपक्रमम् अस्ति तिरुपति महा विश्वविद्यालयस्य संस्कृतविश्वविद्यालयस्य भारतीयगणितं तदपि इदानीं पठनं तत्रापि इदानीं पठनं
अस्ति
कुर्वती अस्मि
बहु समीचीनं भगिनि धन्यवादः स्वागतम् अस्मिन् वर्गे
अहं वदामि महोदय
वदतु भगिनि
अहम् एका संस्कृतप्रिया गृहिणी अस्मि संस्कृतं मह्यं बहु रोचते अहं सदैव चिन्तयामि संस्कृतभाषायाः पठनं मया पूर्वायुष्ये एव प्रारम्भं कृता आसीत् आसं चेत् बहु सम्यक् आसीत् परन्तु प्रत्येकस्य कार्यस्य कृते एकः समयः अस्ति इति कृत्वा प्रायः अधुना मम समयः संस्कृतपठनाय मम समयः आगतः अस्ति प्राप्तः अस्ति इति अहं मन्ये अपि च मम सौभाग्यम् अस्ति यत् भवन्तम् इव गुरुजनाः बहु प्रज्ञावन्तः गुरुजनाः मया लभ्यते इति
बहु समीचीनं भगिनि धन्यवादः भगिनि तत्र स्वरूप महोदयेन एतत् सर्वं तत्र संस्कृतिभारत्याः अपि अस्ति अपि तत् तदनन्तरम् अमेरिकानगरे अमेरिकादेशे अपि तत्र संस्कृतभारत्याः अपि अस्ति अपि एषः वर्गः तु तत्र स्वरूप महोदयेन तत्र तस्य अपि प्रभावः बहु किमपि अस्ति धन्यवादः भगिनि. अस्तु, अग्रे कः वक्तुम् इच्छति अथवा का वक्तुम् इच्छति? गीताञ्जलि भगिनि नमस्कारः.
नमस्ते महोदय.
नमस्कारः भगिनि. तत्र सर्वे एकम् एकं निमिषं यावत् वदन्ति सन्ति. तत्र इदानीं वंशीसुधा भगिनी भवती वदति वा?
आं महोदय, वदामि. अहं वार्तापत्रिका तस्मिन् विषये किञ्चित् वक्तुम् इच्छामि. वार्तापत्रिका अस्मासु दैनन्दिकस्य जीवनस्य एकः मुख्यः भागः अस्ति. अपि च व्यावहारिकजीवनस्य नाडी अपि वक्तुं शक्यते. यदा नाडीव्यवस्थायाः सङ्केतान् शीघ्रेण प्रेषयति तदा सदृशरूपेण वार्तापत्रिका अपि कार्यं करोति. सम्प्रति सर्वेषां प्रातःकालेषु चायं वार्तापत्रिकां विना प्रातःकाल न आरभ्यते. वार्तापत्रिकासु बहवः विषयाः सन्ति. राजनीतिः, क्रीडायाः, गृहिण्याः विषयाः, चलनचित्रस्य विषयाः इत्यादीनि बहवः सन्ति. ये के इच्छन्ति तानि पठितुं शक्नुवन्ति इति सम्पादकस्य विचारः अस्ति. परन्तु एकः अन्यः विचारः अपि अस्ति पत्रिकायां. किम् अस्ति इत्युक्ते, किं दृश्यते इत्युक्ते, तस्य जीवनकालः एकः एव दिनः अस्ति. प्रातःकाले सर्वे उत्साहेन तस्याः आगमनम् इच्छन्ति, परन्तु रात्रौ तस्याः विसर्जनं कुर्वन्ति. किमर्थम् इत्युक्ते, तस्यां कोऽपि नूतनः विषयः नास्ति इति मन्ये. अतः वार्तापत्रिका अस्माकम् एकः नूतनं विषयम् अपि बोधयति इति प्रतिदिनं नूतनविषयानि सङ्गृह्णोतु, नो चेत् तस्याः इव अस्माकं जीवनम् अपि निरर्थकं भवेत्.
बहु समीचीनमस्ति भगिनि, धन्यवादः.
धन्यवादः
भगिनि. एकनिमिषे भवती बहु किमपि उक्तवती. धन्यवादः भगिनि. अस्तु,
इदानीमेव वार्तापत्रिका आगतं महोदय.
किन्तु समीचीनं भगिनि. अस्तु, इदानीम् अन्य कोऽपि तत्र एतावत् गीताञ्जलि भगिनी न उक्तवती, श्रीप्रिया भगिनी न उक्तवती, शोभा भगिनी न उक्तवती इति मन्ये. सर्वे अन्ये सर्वे उक्तवन्तः इति मन्ये.
सर्वे बहु समीचीनम्.
शोभा भगिनी, वदतु भगिनी.
न, सर्वे बहु समीचीनतया उक्तवन्तः. अहं किमपि किम् अस्तु, अद्यतनकाले अधुना वसन्त ऋतुः चलन्ति प्रचलितम् अस्ति. एकनिमिषं महोदय, अत्र ध्वनिः अस्ति. प्रचलितम् अस्ति, अतः पुरितानि पुष्पाणि सर्वत्र दृश्यते. दृश्यते अथवा दृश्यन्ते. अपि च वातावरणं बहु आह्लादकरम् अस्ति. अपि च चत्वारि वर्षाणां अनन्तरम् अमेरिकादेशे नूतनराजा आगतः अस्ति. अपि च बहु साधु अपि प्रामाणिकः अपि स्वाभाविकेन किम् उत्तमः अस्ति. अतः इदानीं देशस्य उन्नतिः भवति, अपि च सर्वं सुधारितः भवति इति मन्ये इति आशयः अस्ति सर्वेषां पुरतः. आम्, अपि च इदानीं पर्यन्तं तु सः तु बहु समीचीनतया तस् राजस्य कार्यं कुर्वन् अस्ति. राज्ञः, क्षम्यतां, राज्ञः कार्यं कुर्वन् अस्ति. इति सन्तोषकरः विषयः अस्माकं कृते.
समीचीनं भगिनि, धन्यवादः. तावदेव समीचीनं भगिनि, धन्यवादः. अस्तु, इदानीं तत्र श्रीप्रिया भगिनी अथवा गीताञ्जलि भगिनी.
प्रतिदिनम् अस्माकं सखीभिः सह रटनवर्गं प्रचलत् अस्ति. मध्याह्ने सपादद्विवादनात् आरभ्य त्रिवादनपर्यन्तं वयं मिलित्वा संस्कृतस्य पठनं कुर्वत्यः सन्ति. तत्र एका एका स्वीकृत्य किमपि पाठयति प्रतिदिनं, नो चेत् प्रश्नं पृच्छति, धातुं स्वीकृत्य अन्यान् पृच्छति. तत्र किमपि विभक्ति अपि कुर्वन्त्यः सन्ति. धातुं स्वीकृत्य यदा पञ्चलकारान् वा षड्लकारान् वदामः, तदनन्तरं किमपि एकं प्रथमपुरुष एकवचनं वा तादृशं स्वीकृत्य किमपि लकारस्य स्वीकृत्य झटिति वाक्यमपि वक्तव्यम् इति वयं तादृशं स्वीकृतवत्यः. अनन्तरं धातोः रटनस्य समापनानन्तरं वयम् एकं विभक्तिवदरितः, नो चेत् अभ्यासपत्रात् पत्रतः एकं वाक्यं स्वीकृत्य आवरणे यत् पदम् अस्ति किन्तु तादृशमेव न स्वीकुर्मः, किन्तु तस्य पर्यायपदं किम् अस्ति इत्यपि उक्त्वा उचितविभक्तिरूपं स्वीकृत्य तदपि स्थापयित्य वक्तव्यं. तदनन्तरं तत् शब्दस्य पूर्णरूपाणि अपि वक्तव्यानि. प्रतिदिनम् एतादृशं कुर्वत्यः मिलित्वा एव पठन्त्यः सन्ति इदानीम्.
बहु समीचीनमस्ति भगिनि, बहु समीचीनं, धन्यवादः. बहु समीचीनं, तादृशं करोति चेत् बहु लाभः. समीचीनं,
सम्भाषणस्य वर्धनार्थम् एतादृशं कुर्वत्यः सन्ति.
धन्यवादः. अस्तु, गीताञ्जलि भगिनि.
धन्यवादः.
धन्यवादः भगिनि, सुप्रिया भगिनि.
नमस्ते महोदय, क्षम्यतां विलम्बेन आगतवती. अहं तु विस्मरामि महोदय, सप्तवादने वा.
क्षम्यतां, क्षम्यतां. इदानीं तु समयः एकः एव, तत्र अष्टवादने इति.
अस्तु अस्तु, क्षम्यतां महोदय, अहं तु विस्मरामि. अस्तु, किं वदामि, सर्वे बहु समीचीनतया उक्तवन्तः. अहं किं वदामि इत्युक्ते, मम गृहे बहु किमपि अधुना तु संस्कृतभाषायां विषये पुस्तकानि सन्ति, किन्तु वर्षद्वयं पूर्वं तु केवल एकम् अपि, एकं तु न किन्तु सीमितं पुस्तकानि संस्कृतविषये आसीत् तदा. अधुना प्रातःकाले तु किञ्चित् अहमपि संस्कृतभाषायां वक्तुं प्रयत्न कुर्वन्ती अस्मि स्मः करोति स्म. किमर्थं एक वर्गे अहं प्रचलति, सख्यामपि सखी बहुवचनरूपं किं महोदय?
सखी इत्युक्ते सख्यः.
सख्यः, सख्यः इत्युक्ते सखीभिः सह एव वयं किञ्चित् चिन्तनं कुर्वन् स्मः इत्युक्ते भगवद्गीताविषये वा योगसूत्र पतञ्जलियोगसूत्रविषये वा अपि च किञ्चित् संस्कृतं व्याकरणे अपि किञ्चित् प्रयत्नं कुर्वन् स्मः अत्र.
कुर्वत्यः स्मः.
कुर्वत्यः स्म.
अस्तु अस्तु भगिनि, धन्यवादः भगिनि.
महोदय,
धन्यवादः भगिनी. अस्तु, बहु समीचीनम् अस्ति, सर्वे उक्तवन्तः, सन्तोषजनकः. वदतु भगिनि,
भवान् किं कृतवान् महोदय अद्य?
अद्य अहं किं कृतवान्? अद्य पाठितवान्, तदनन्तरं किं तत्र अनेकाः तत्र छात्रद्वयेन मिलितवान्, तदनन्तरं श्वः यः वर्गः अस्ति तस्य कृते किञ्चित् लिखितवान्, यदि अग्रे यदि श्वः पाठनीयमस्ति चेत् अद्य एव कार्यं भवति. हा, तदनन्तरं किं मम पुत्री तत्र द्विचक्रिकया गन्तुम् इच्छति, इदानीमेव आरब्धवती, अतः तत्रापि तस्या तया सह अपि तत्र किञ्चित् गत्वा तत्र वायुना किं किञ्चित् बहिः गन्तुम् अवकाशः प्राप्तः, नो चेत् गृहे एव तिष्ठामः खलु इदानीम्.
आं महोदय.
हा, तावदेव, तदनन्तरं सायम् अभवत् इदानीं वर्गः.
अस्तु महोदय, धन्यवादः महोदय.
हा, धन्यवादः,
धन्यवादः
महोदय. हा,
महोदय, भवान् गणितशास्त्रमपि पाठयति किल?
आम् आं भगिनि.
ओ अस्तु,
अस्तु, तर्हि अतः तत्र किं कुर्मः, तत्र इदानीं पुटः अस्ति, तत्र त्रिंशत्तमे पुटे तत्र करणीयम् इति मन्ये खलु?
आं महोदय.
अस्तु अस्तु, तर्हि तत्र आरम्भं कुर्मः. तत्र वेदा भगिनी आरम्भं करोति वा भगिनि?
हा महोदय. शुद्धस्य सप्तमी विभक्तिरूपस्य पुरतः चिह्नं लिखत,
यथा समीचीनं चिह्नं अथवा सम्यक् चिह्नं,
यथा गुणिन् गुणिनि गुणिनि गुणीनि गुणीनि. सो तत्र गुणिनि प्रथम गुणिनि एव समीचीनमस्ति. ह्रस्वैकार
नकारान्त कीदृशपदम् अस्ति, पदपरिचयं करोतु. तत्र गुणिन् इति प्रातिपदिकं,
गुणिन् प्रातिपदिकमस्ति. तत्र गुणिन् गुणिनौ गुणिनः,
तत्र
पुल्लिङ्गं
अपि तत्र अपि नकारान्तप्रातिपदिकं गुणिनौ गुणिनः. अस्तु, समीचीनम् अस्तु.
तत्र धीमत् धीमन्तौ धीमन्तः, तत्र धीमती, तत्र धीमति ह्रस्व इकारः, धीमति ह्रस्व इकारः, धी दीर्घ, धी ह्रस्व,
अतः द्वितीयं द्वितीयं द्वितीयम्. अस्तु, समीचीनं भगिनि. अस्तु अस्तु, अग्रे ललिता भगिनि अग्रे अग्रिमं करोति वा?
अस्तु महोदय. सुहृद् अस्ति, शुद्ध शुद्धवाक् शुद्धशब्द अस्ति सुहृत्सु, सुहृत्सु सप्तमी विभक्त्याम् अस्ति, लकारान्तशब्दः.
अस्तु, तत्र एकवचने द्विवचने अपि रूपाणि कानि इति वदति वा? सप्तमी विभक्तौ सुहृत्सु पदस्य
एकवचनं
सप्तमी किमस्ति?
सुहृद् औ सुहृद्
न एकवचने
सुहृत् द्वयमपि साधु इति मन्ये.
न, सप्तमी एकवचने किमस्ति?
सुहृदौ सुहृदः
सप्तमी
एकवचने, सप्तमी एकवचने सुहृदि सुहृदि सुहृदोः सुहृत्सु.
हा, बहु समीचीनं भगिनि. अस्तु, धन्यवादः.
सुहृदोः
सुहृत्सु, समीचीनं. हा,
सुहृत्सु.
हा, अस्तु, अग्रे श्रूयते भगिनि. अस्तु, लक्ष्मी भगिनी अग्रे. लक्ष्मी भगिनी
अनन्तरं अस्तु महोदय. विपद् विपद् प्रथमविभक्तिरूपाणि विपदः विपदं विपदौ विपदः सप्तमी विभक्तिरूपाणि विपति विपदोः विपत्सु
विपत्सु
विपत्सु इति शुद्धं शुद्धवाक्यं.
तत्र प्रथमं वा द्वितीयं वा तृतीयं वा?
प्रथमं
प्रथमम् अस्तु समीचीनम् अस्तु मीना भगिनी अग्रे
विपद् इति श्रीलिङ्गपदं किल महोदय
हा सत्यं सत्यं विपद् आपद् विपद् परिषद् हा सर्वं श्रीलिङ्गम् अस्तु मीना भगिनी अग्रे
सरिति सरिति सरितोः सरत्सु वा
सरित्सु सरित्सु
आम् सरिति सरितोः सरित्सु
सरित्सु बहुवचने अत्र तु प्रथम एकवचनम् एव दत्तमस्ति तत्र प्रथम वा द्वितीयं वा तृतीयं वा किं भवती चिन्तयति
समीचीनं
न तत्र यद् दत्तमस्ति तत्र सरीति सरीति अपि सरीति इति दत्तमस्ति तत्र किं समीचीनम् इकारः ह्रस्वः वा दीर्घः वा
अन्तिम इकारः ह्रस्वः
अपि तस्मात् पूर्वं स अनन्तरम् इकारः तत्र स र इकारः तदनन्तरं रकारः तकारः तयोः मध्ये इकारः अस्ति तत्र सः इकारः किम्
अहं चिन्तयामि सः अपि ह्रस्व एव
ह्रस्वः एव अस्तु समीचीनम् अस्तु अस्तु धन्यवादः भगिनि अस्तु शुभदा भगिनी अग्रे
तर्हि प्रथमविभक्ति किं रूपं महोदय
सरितौ सरितः
सरित् सरितौ सरितः
हा तत्र ईमेल् मध्ये अहं तत्र लिङ्क् अस्ति भगिनि तत्र स्वरूप महोदयस्य करपत्रम् अस्ति तत्र सामान्य पदानां विभक्तिरूपाणि दत्तानि सन्ति तत्र तत्र पश्यतु सरित् सरित् इति अस्ति अस्तु शुभदा भगिनि अग्रे
वाच् इति तस्य वाक्षु द्वितीयः विकल्पः सम्यक् अस्ति वाक्षु इति सप्तमी रूपाणि सप्तमी विभक्तेः रूपाणि वाच् वाचि वाचोः वाक्षु इति
वाचि वाचोः वाक्षु तत्र प्रथमविभक्तौ तु वाक् इति अस्ति किन्तु वाच् इति प्रातिपदिकं चकारन्त प्रातिपदिकम् अतः वाचि वाचोः वाक्षु समीचीनं भगिनि अस्तु अग्रे शोभा भगिनि
महोदय जगत् इति तत्र जगति इति दत्तं तत्र जगत् इति जगत् जगति जगन्ति इति प्रथमविभक्तौ भवति अपि च सप्तमी भवति जगति इति एकवचने ह्रस्व इकारः हलन्त प्रातिपदिकम् अस्ति इति कृत्वा ह्रस्व इकारः सप्तमविभक्तौ जगति जगतोः जगत्सु इति भवति
अपि तत्र द्वितीयं यद् दत्तमस्ति तत्र जगती इति तत्र किं तत् किम् अस्ति
जगती इति द्वितीया द्विवचने भवति
द्विवचने भवति जगत् जगती जगन्ति
जगत् जगति जगन्ति
अपि जगिति इति तत्र तत्र का विभक्ति जगिति इति
जगिति
विभक्तिरूपम् अस्ति न वा
जगिति इति नास्ति इति
नास्ति
तत्र गकारस्य इकार भवितुं
नार्हति अतः तत्र किन्तु तत्र केवलं तत्र क्लेशार्थं स्थापितं तत्र तावत् एव अस्तु मधु महोदय अग्रे इदानीं वपुष्यति महोदय मधु महोदय श्रूयते वा प्रायशः बहिः अस्ति वा भवान् अस्तु तत्र अस्तु वंशी सुत भगिनि वपुष्यति
वपुष् वदामि अस्तु वपुष् इति नपुंसकलिङ्गमस्ति वपुः वपुषि वपुंषि इति प्रथमविभक्तौ अस्ति तत्र तु सप्तमी विभक्तौ वपुषि वपुषोः वपुषु इति भवति द्वितीयमस्ति वपुषु इति महोदय
समीचीनं भगिनि तत्र षकारः इष् अपि तदनन्तरं शु वपुषु इति समीचीनं भगिनि अस्तु अग्रे मधु महोदय कर्तुं शक्नोति वा? न श्रूयते. अस्तु अस्तु तर्हि गीताञ्जलि भगिनी अग्रे.
आं महोदय, शिरस् शिरस् नपुंसकलिङ्गे सकारान्त मनस्वत् न महोदय.
सत्यं सत्यं, हा, मनः मनसि मनांसि शिरः शिरसि शिरांसि
मनसि मनांसि इत्युक्ते शिरसि तत्र दत्तम् इत्युक्ते शिरसि तु द्विवचने प्रथमद्वि.
अत्र सप्तमी रूपं किम् अस्ति? अन्तिमरूपं तु तृतीयं तृतीयं समीचीनं. हा शिरस्सु इति हा समीचीनं भगिनि. अस्तु श्रीप्रिया भगिनी अग्रे.
सरत् इति अस्ति सकारान्तपुंसकलिङ्गः. सरत् शब्दः प्रथमं यत् दत्तं तदेव सुखं रूपं. सप्तमी बहुवचने अस्ति सरत्सु.
सरस् हा समीचीनं भगिनि. अस्तु धन्यवादः. अस्तु लक्ष्मी भगिनी.
हा अस्तु महोदय. सरस् आत्मन् शब्दः आत्मा आत्मानौ आत्मानः इति प्रथमविभक्तिरूपाणि. सप्तमी आत्मनि बहु
आत्मनि आत्मनोः
आत्मनोः आत्मत्सु
आत्मसु
तृतीयम्
अस्ति. समीचीनं भगिनि. अस्तु अस्तु इदानीं तत्र उषा भगिनी अग्रिमम् आरम्भं करोति वा भगिनि?
एतेषां प्रश्नानाम् उत्तरं लिखत.
हा इदानीं तत्र कथायाः विषये प्रश्नाः सन्ति इदानीं.
दूरदर्शने कस्य सम्माननं समारम्भः प्रवर्तते? दूरदर्शने सत्यजितः सम्माननसमारम्भः प्रवर्तते.
समारम्भः प्रवर्तते. समीचीनं भगिनि. अस्तु अग्रे
महोदय. तत्र सत्यजित्यस्य इति भवति किल?
इति न न तत्र सत्यजित् इति हलन्तपदम्.
सत्यजितः
अतः सत्यजितः इति. तत्र सरित् सरितः इति तत्र मरुत् मरुतः सत्यजित् सत्यजितः इति. तत्र हलन्तपदानां तत्र वयं जानीमः खलु भगिनि, वंशीसुधा भगिनी, तत्र तत्र किं तत्र तृतीय आरभ्य सप्तमीपर्यन्तं रूपं कथं भवति? तत्र मरुत् इति स्वीकुर्मश्चेत् तत्र तृतीयविभक्तितः सप्तमीपर्यन्तम् एकवचने रूपं कीदृशम् अस्ति? तृतीया मरुता भवता तत्र भवत् शब्दं कथम् अस्ति तादृशमेव तत्र भवता भवते भवतः भवतः भवति तादृशमेव तत्र सत्यजिता सत्यजिते सत्यजितः सत्यजितः
सत्यजिति
हा इति तावदेव भगिनि. अतः तत्र एकवचने सुलभमस्ति.
न किञ्चित् मम भ्रमः जातः षष्टिविभक्ति पुल्लिङ्गशब्दः इति चिन्तितवती.
ओ अस्तु अस्तु अस्तु
सत्यजित इति
अस्तु चिन्ता मास्तु भगिनि. अस्तु अस्तु अग्रे तत्र वेदा भगिनी द्वितीयं.
हा महोदय, सत्यजित् कस्मात् धीरता पुरस्कारान् प्राप्तवान्? कस्मात् प्रभु सत्यजित् प्रधानमन्त्रिणः मुख्यमन्त्रिणः च धीरतापुरस्कारान् प्राप्तवान्?
हा समीचीनम्. अस्तु धन्यवादः. अस्तु अग्रे शोभा भगिनी.
सः सरितः प्रवाहे कौ दृष्टवान्? सः सरितः प्रवाहे तत्र एकम् अस्ति वा बालकं बालकः
बालकौ
द्वौ बालकौ दृष्टवान्.
हा निमज्जन्तौ जले निमज्जन्तौ
निमज्जन्तौ द्वौ बालकौ
दृष्टवान् समीचीनम् अस्तु शुभदा भगिनी अग्रे
कः सत्यजितः सम्माननं कृतवान् कः कृतवान् नगरस्य भिषजां प्रमुखः नरेन्द्रमहोदयः सत्यजितः सम्माननं कृतवान्
बहु समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे तत्र अन्य कोऽपि तत्र यः अथवा या स्मरति कथां ताम् अस्तु तत्र गीताञ्जलि भगिनी तत्र अन्तिमं
कथं महत्त्वं सिद्धयति इत्युक्ते
न तत्र अन्तिमं पश्यतु तत्र अन्तिम नरेन्द्रः तत्र विषक्यः अस्ति सः वदति तस्य वाक्यं पश्यतु कथायाः अन्ते कथायाः अन्तिम
वाचः माधुर्येण मम
गीताञ्जलि भगिनी प्राप्तवती वा तत्र
कथं महत्त्वं सिद्ध्यति न महोदय कथं महत्त्वं सिद्ध्यति इत्युक्ते प्रमुखः वदति अस्य बालस्य चरितं सर्वेषाम् आदर्शः भवतु इति
अस्तु 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 तस्य पूर्वम् अस्तु भगिनि तत्र बहु इदानीं प्रायश स्मरणं नास्ति चिन्ता मास्तु अस्तु लक्ष्मी भगिनी भवती स्मरति वा वदतु भगिनी
पुस्तकम् अहं पश्यामि दृष्ट्वा वदामि वाचः माधुर्येण सम्पदः राशिना वा न भवति न अपि तु कर्मणः प्रभावेन एव सिद्ध्यन्ति
सिद्ध्यति किं सिद्ध्यति महत्त्वं
महत्त्वं सिद्ध्यति
कोऽपि कोऽपि जनः अस्ति तस्य महत्त्वं केवलं
जनस्य महत्त्वं
कर्मणः
वाचः माधुर्येण सम्पदः राशिना वा न अपि तु कर्मणः प्रभावेन एव सिद्ध्यति
महत्त्वं कर्मणः प्रभावेण एव सिद्ध्यति अतः वाचः माधुर्येण
वाचः माधुर्येण
सम्पदः
राशिना वा
न
सिद्ध्यति
न सिद्ध्यति समीचीनम् अस्तु
धन्यवादः
भगिनी धन्यवादः दृष्ट्वा एव
अस्तु तर्हि अस्तु अतः तत्र अग्रिमपुटे तत्र भगवद्गीतायाः श्लोकाः सन्ति
महोदय एकः प्रश्नः अस्ति सः सरितौ सरितः प्रवाहौ कौ दृष्टवन्तौ तत्र का विभक्ति योजयितुम् अस्ति
प्रवाहे सप्तमी कौ इति कर्मपदम् अस्ति
सरितः सरितः उपयोगमस्ति
सरितः इति षष्टि सरितः सरितः प्रवाहे सरितः तत्र तु षष्टि भगिनि
सम्बन्धः अस्ति अत्र
कस्य प्रवाहः अथवा कस्याः प्रवाहः इति प्रश्नः तत्र अस्तु समीचीनम् अस्तु अतः तत्र भगवद्गीतायाः श्लोकाः ये सन्ति तान् अग्रिमे वर्गे परिशीलयामः अतः तत्र अग्रिमे वर्गस्य गृहपाठः अस्ति तत्र भगवद्गीतायाः श्लोकान् पश्यन्तु किञ्चित् तस्य अवगमनं भवेत् तेषाम् अवगमनं भवेत् तदनन्तरं तेषां चर्चां वर्गे कुर्मः अतः इदानीं तत्र अग्रिमपाठः यः अस्ति तस्य आरम्भं कुर्मः अतः तत्र मधुमहोदय इदानीं वक्तुं शक्नोति वा पुस्तकमस्ति
क्षमतां महोदय
अस्तु अस्तु चिन्ता मास्तु शृणोतु महोदय चिन्ता मास्तु अस्तु तर्हि तत्र अस्तु मीना भगिनी भवती एव आरम्भं करोति वा अग्रिमपाठः अग्रिमपाठं तत्र न विकम्पितुम्
अर्हति
अस्तु
हलन्तशब्दः न एतत् न विकम्पितुम् अर्हति
सत्यं
हलन्तशब्दाः सप्तसु विभक्तिषु एतां कथाम् उच्चैः पठत अवगच्छत च कस्मिंचित् राज्ये कश्चन राजा आसीत् सः नीतिमान् शास्त्रविद् धार्मिकश्च आसीत् तस्य यशः सर्वत्र प्रसृतम् आसीत् तस्य कश्चन मन्त्री अपि आसीत् सः विद्वान् विवेकी श्रद्धावान् च आसीत् ज्ञानिनः तस्य उपदेशम् अनुसृत्य राजा राज्यं पालयति स्म तस्य प्रजाजनाः गुणिनः धर्मनिष्ठाः कर्मशूराश्च आसन्
हा समीचीनं भगिनि धन्यवादः धन्यवादः भगिनि हा अस्तु अग्रे तत्र श्रीप्रिया भगिनी अग्रे पठति वा
कृषकाः वणिजः षजः शिल्पिनः कुविन्दाः चर्मकाराः सर्वेऽपि धर्मानुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति स्म अत एव सर्वसम्पदा अनुगृहीतम् आसीत् तत् राज्ये सरितः सरांसि च जलपूर्णानि भवन्ति स्म फलपूर्णेषु शाखिषु पक्षिणः महत्या मुदा विहरन्ति स्म सर्वदिशः अपि जनाः तत्राज्यम् आगच्छन्ति स्म ते तत्र रम्याणि भवनानि निर्माय उत्तमनता निवसन्ति स्म
धन्यवादः समीचीनं धन्यवादः अस्तु तत्र अग्रे तत्र वंशीसुधा भगिनी अग्रे पठति वा
आं महोदय अथ कदाचित् शत्रुः युद्धार्थम् आगतवान् अकस्मात् प्रवृत्ते युद्धे अयं राजा पराजितः अभवत् सः मन्त्रिणा साकं कथञ्चित् नगरं परित्यज्य किञ्चन वनं प्राप्तवान् कण्टकयुक्तेषु पथिषु अश्मसु वा पादरक्षां विना सञ्चलितुम् अक्षमः सः क्षुधया पिपासया च पीडितः कस्यचित् सरसः तीरे उपविष्टवान् घोरायाम् आपदि अपि आत्मनः हितं परित्यज्य अनुगतं मन्त्रिणं दृष्ट्वा अश्रूणि मुञ्चन् सः अवदत् भोः मन्त्रिन् मम राज्यं नष्टं सर्वाः सम्पदः नष्टाः महत् कष्टम् आपतितम् इतः परम् अहं जीवितुं न इच्छामि कथमपि मरिष्यामि एव इति
हा धन्यवादः भगिनि समीचीनम् अस्तु ललिता भगिनी अग्रे ललिता भगिनि
विलपन्तं राजानं दृष्ट्वा मन्त्री तं सान्त्वयन् उक्तवान् राजन् अलं दुःखेन राज्यं विनष्टम् इति भवान् मा चिन्तयतु धीमन्तः गते शोकं कुर्वन्ति ते वर्तमानम् एव चिन्तयन्ति परिश्रमेण कर्मणा च ते अभीष्टमायन्ति अतः दुःखार्थः मा भवतु विनष्टस्य राज्यस्य पुनःप्राप्तये उपायं चिन्तयाव यः अस्माकं शत्रुः राजा अस्ति तस्यापि वैरिणः वर्तन्ते तैः वैरिभिः सत्यं विधाय पुनरपि युद्धं करिष्यामः नष्टं राज्यं पुनः न लप्यते इति कः अत्र निश्चयः भगवतः कृपया भवान् राज्यं सम्पदः यशश्च विना विलम्बं प्राप्स्यति चिन्तां मा करोतु इति
हा धन्यवादः भगिनी समीचीनम् अस्तु उषा भगिनी अग्रे
पठनीयं वा
न तावत्पर्यन्तं धन्यवादः भगिनी धन्यवादः
मन्त्रिणः सान्त्वनवचसा
तुष्टः राजा दुःखं परित्यज्य उदतिष्ठत् अन्यैः राजभिः सख्यं विधाय पुनरपि युद्धं कृतवान् स्वीयं राज्यं प्रति प्राप्तवान् साहाय्य कृतभ्यः राजभ्यः प्रभूतम् उपायनादिकं दत्त्वा तान् तोषितवान् मन्त्रिणा सह सुखेन चिरं राज्यपालनं च कृतवान्
हा इति अस्ति समीचीनं भगिनि धन्यवादः अस्तु एतावत् तत्र किं वयं कृतवन्तः इत्युक्ते तत्र प्रथमाविभक्ति द्वितीयाविभक्ति इति पृथक्तया पठितवन्तः किन्तु अस्मिन् पाठे कः विषयः इत्युक्ते तत्र विभक्तयः सप्तविभक्तयः सर्वाः तत्र सन्ति अतः तत्र मिश्रण अभ्यासः इति भवति अस्मिन् पाठे अस्तु इदानीं तत्र एकवारं पठितवन्तः इदानीं तत्र पङ्क्तिशः परिशीलयामः तत्र किं किम् अस्ति इति व्याकरणरूपेण अपि किञ्चित् चिन्तनं कुर्मः अस्तु तर्हि तत्र शुभदा भगिनी आरम्भं करोति वा भगिनि
आं महोदय
अस्तु
कस्मिंश्चित् राज्ये कश्चन राजा आसीत् अत्र तु बहु सरलमस्ति वाक्यं सः नीतिमान् शास्त्रविद् धार्मिकः च आसीत् सः राजा नीतिमान् शास्त्रविद् अपि च धार्मिकः आसीत् एतानि एते सर्वे विशेषणाः राजा इति शब्दस्य सः राजा कथम् आसीत् इत्युक्ते सः नीतिमान् शास्त्रविद् धार्मिकः च आसीत् नीतिमान् इति नीतिमान् इति नीतिमत् इति शब्दस्य प्रथमा विभक्ति एकवचनम् अपि च शास्त्रविद् इति शास्त्रविद् इति दकारान्तप्रातिपदिकं वा महोदय
शास्त्रविद् इति जानाति शास्त्रविद् इति तत्र
शास्त्रं जानाति इति शास्त्रविद्
शास्त्रस्य ज्ञानम् अस्ति विद् इति तत्र ज्ञानम् इति खलु तत्र अतः तत्र शास्त्रं जानाति इति
महोदय तत् सुहृत् शब्द एव वा
सुहृत् शब्द इव
शास्त्रविद् शास्त्रविदौ शास्त्रविदः
सत्यं भगिनि सत्यं समीचीनम् अपि नीतिमान् तत्र तु नीतिमत् इति तत्र यस्मिन् अथवा यस्य अथवा यस् तत्र यस्मिन् नीतिः अस्ति इति
भवान् इति भवत् शब्दः इति नीतिमान् इति प्रथमा विभक्त यद् भगिनी उक्तवती
तत्र सत्यं 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 भगिनि रूपं तादृशम्
एतानि सर्वाणि समस्तपदानि किल नीतिमान् शास्त्रविद्
समस्तपदम् इति तत्र समस्तपदम् इति तत्र तादृश तत्र प्रत्येन प्राप्तं भगिनि अतः तत्र यथा तत्र किं कृष्णपक्षः इति तद् समस्तपदम् अस्ति किन्तु
तादृशम् अत्र नास्ति समासः नास्ति वा बहुव्रीहिसमासः
शास्त्रविद् समासः अस्ति न महोदय
अपि च नीतिमान्
नीतिमान् तु मतु प्रत्ययः अस्ति भगिनि यस्मिन् नीतिः
मतु प्रत्ययः खलु आम् परन्तु
तद्धित प्रत्ययः अस्ति
किन्तु तत्र समस्तपदम् इत्युक्ते भगिनि तत्र पदद्वयं वक्तव्यम् अस्ति खलु तत्र
महोदय शास्त्रविद् तु समस्तपदमेव भवति शास्त्र
नीतिमान् नीतिमान् इति विषये तत्र
नीतिमान् तु समस्तपदं नास्ति महोदय
नीतिमान् नास्ति
अस्ति सः
तत् विग्रहवाक्यम् अस्ति भगिनि विग्रहवाक्यं तु अस्ति किन्तु तत्र किन्तु
तद्धितप्रत्यययोजनेन प्रातिपदिकं भवति महोदय तत्तु सत्यं नीतिमत् इति भवति तदनन्तरं रूपाणि भवितुम् अर्हति
किन्तु भगिनी तत्र बहुव्रीहिसमासः तादृशं नास्ति भगिनि अत्र शुद्धभगिनी तत्र नीतिमान् मध्ये
तत्र एकमेव सुबन्तमस्ति भगिनी तत्र सुबन्तद्वयं आवश्यकं किल सुबन्तद्वयोः योजनेन समस्तपदं भवति शास्त्रविद् इति सुबन्तमस्ति शास्त्रं शास्त्रम् अपि च विद्
अस्तु अस्तु अपि च धार्मिक
क्षम्यतां वित् इति वित् इति कीदृशपदमस्ति महोदय? वित्तः वा?
वित् इति तत्र धातु धातुना आगतं भगिनि, किन्तु इदानीं तत्र
धातु अस्ति चेत् समस्तपदं न भवितुम् अर्हति किल?
इदानीं तत् विषयान्तरं मास्तु, केवलं तत्र इदानीम् इदानीं किं तत्र नीतिमत् इति प्रातिपदिकं तकारान्त पुल्लिङ्गपदम् अपि शास्त्रविद् धकारान्त सुहृद् इव पदम्,
अपि च धार्मिकः इति अकारान्तपुल्लिङ्गशब्दः रामवत्,
समीचीनं भगिनि. इदानीं तत्र यदि तत्र राजा इति एकवचने अस्ति, बहुवचने किं भवति राजा इति पदं?
राजा, राजानौ, राज्ञः,
राजानः, राजानः इति राज्ञः षष्ठी एकवचने भवति भगिनि,
द्विवचने बहुवचनं, द्वितीय विभक्ति, द्वितीया विभक्ति बहुवचनं,
हा तदपि राज्ञः अस्ति सत्यं. हा इदानीं भगिनि शुभभगिनी तत्र राजा, सः राजा नीतिमान् शास्त्रविद् धार्मिकश्च आसीत्, इदानीं सः एव तदेव वाक्यं बहुवचनरूपं वदतु.
ते राजानः नीतिमन्तः शास्त्रविदः धार्मिकाः च आसन्.
तावदेव, समीचीनं भगिनि, अस्तु अग्रे.
तस्य यशः सर्वत्र प्रसृतम् आसीत्, तस्य यशः कीर्तिः च सर्वत्र सर्वत्र प्रसारितम् आसीत्.
तत्र प्रसृतम् इति अस्ति, प्रसृतम् इति किं प्रसृतम् आसीत्?
यशः इति यशस् इति सकारान्त नपुंसकलिङ्गशब्दः, अतः प्रसृतम् अपि तस्य विशेषणम् इति कृत्वा नपुंसकलिङ्गे एव अस्ति इति.
समीचीनम्. इदानीं तत्र सः राजा इति अस्ति, तस्य यशः, इदानीं तस्य राजा इति षष्ठी, तस्य राज्ञः यशः सर्वत्र प्रसृतम् आसीत्. समीचीनं भगिनि, अग्रे.
तस्य कश्चन मन्त्री अपि आसीत्, मन्त्री इति मन्त्रिन् इति शब्दस्य इति अहं मन्ये नकारान्तपुल्लिङ्गशब्दः, तस्य प्रथमाविभक्ति एकवचने मन्त्री इति भवति, मन्त्री, मन्त्रिणौ, मन्त्रिणः इति
मन्त्रिणः इति तत्र णत्वम् अस्ति. समीचीनं भगिनि, अस्तु अग्रे.
तस्य कश्चन मन्त्री अपि आसीत्, सः मन्त्री, सः इत्युक्ते सः मन्त्री विद्वान्, विवेकी, श्रद्धावान् च आसीत्.
हा समीचीनम्. इदानीं पुनः तत्र बहुवचनरूपं सः मन्त्री तादृशम् आसीत्, इदानीं ते
मन्त्रिणः नीतिमन्तः
विद्वान् इति तु विद्वस् इति पदस्य विद्वांसः,
विद्वांसः, विद्वान्, विद्वांसौ, विद्वांसः, विद्वांसः, विवेकिनः, श्रद्धावन्तः च आसन्
आसन् इति. समीचीनं भगिनि, धन्यवादः, अस्तु अग्रे शोभा भगिनि.
महोदय, तत् महोदय तत्र विवेकी इति अस्ति, तत्र विवेकी इति कि विवेकिन् न शब्दः?
इनि इनि प्रत्यय विवेकिन्, यस्मिन् यस्य विवेकः अस्ति सः विवेकी.
अतः गुणिन् शब्दवत् एव भवति,
गुणिन् शब्दवत् सत्यं, हा गुणि इति, हा अतः दीर्घ इकारः पुल्लिङ्गे.
ज्ञानिनः तस्य उपदेशम् अनुसृत्य राजा राज्यं पालयति स्म. ज्ञानिनः, ज्ञानिन् इति प्रातिपदिकं, ज्ञानिनः इति षष्टिविभक्तौ, तत्र ज्ञानिनः तस्य उपदेशं अनुसृत्य राजा राज्यं पालयति स्म. तत्र राजा इति
कर्तृपदं, तत्र क्रियापदं किम् अस्ति अस्मिन् वाक्ये?
पालयति इति क्रियापदं,
पालयति,
पालयति,
कः पालयति, कर्तृपदं किं
तत्र? राजा इति कर्तृपदं,
राजा, राजा पालयति,
राजा पालयति.
कर्मपदम् अस्ति वा, कर्मपदम् अस्ति वा?
राज्यम् इति अस्ति इति,
अतः राजा राज्यं पालयति,
पालयति.
इदानीं तत्र अतः सः भागः तत्र राजा अनन्तरं किमस्ति, राजा पदस्य अनन्तरं किमस्ति तद् जानीमः, इदानीं तस्मात् प्राक् किम् अस्ति?
तस्मात् प्राक् अनुसृत्य इति अस्ति, किमपि अनुसृत्य सः राज्यं पालयति, तत् उपदेशम् अस्ति. उपदेशम् अनुसृत्य राज्यं पालयन्ति अस्ति, पालयन् अस्ति,
पालयन् अस्ति, समीचीनं. अनुसृत्य लभन्तम्
कस्य उपदेशम् अनुसृत्य इति ज्ञानिनः उपदेशम्.
कः ज्ञानी अत्र?
ज्ञानिनः, ओ तस्य उपदेशम् अनुसृत्य राजा राज्यं पालयति स्म. तत्र ज्ञानिनः इत्युक्ते तस्य पूर्व
मन्त्रिणः भगिनि, पूर्वस्मिन् वाक्ये तत्र अन्वयः भवति.
अस्तु, विद्वान्, विवेकी, श्रद्धावान्
सः कः आसीत्? सः मन्त्री,
मन्त्री आसीत्.
इदानीम् अतः
अग्रिमवाक्ये इति अधुना वयं जानीमः.
तत्र तादृशज्ञानम् आवश्यकम् अस्ति, यतोहि तत्र रामः वनं गच्छति, तदनन्तरं वाक्यम् अस्ति सः इति अस्ति चेत् वयं जानीमः सः तु रामः इति, खलु? अत्र सः
इति वक्तुं शक्नुमः किल,
अनुवृत्ति अथवा अन्वयः.
अस्तु,
तस्य ज्ञानिनः इति पदद्वयम् अस्ति. पदद्वयस्य अन्वयः कुत्र अस्ति इत्युक्ते पुनः
यदि अहं ते वाक्यद्वयं मिलित्वा पठितवती चेत्
तत्र क्लेशः,
तत्र किमर्थं चेत् सः विद्वान्, विवेकी, श्रद्धावान् च आसीत्, ज्ञानिनः तस्य उपदेशम् अनुसृत्य राजा. अस्तु महोदय,
इदानीं समीचीनम् अस्तु. इदानीं पूर्णवाक्यं वदतु. तत्र तस्य इति तस्य तस्य मन्त्रिणः तस्य अथवा तस्य ज्ञानिनः मन्त्रिणः
तस्य ज्ञानिनः मन्त्रिणः अपि च तस्य ज्ञानिनः मन्त्रिणः उपदेशम् अनुसृत्य राजा राज्यं पालयति स्म.
इति तत्र लघुवाक्यं किम् अस्ति? मन्त्रिणः उपदेशम् अनुसृत्य राजा राज्यं पालयति स्म. कीदृशमन्त्री इत्युक्ते तत्र मन्त्री इति. समीचीनं भगिनि, अस्तु अग्रे.
अग्रे तस्य प्रजाजनाः गुणिनः, धर्मनिष्ठाः, कर्मशूराश्च आसन्.
इदानीं तस्य इति पदस्य अन्वयः कुत्र अस्ति?
तत्र पूर्वस्मिन् वाक्ये राजा
राजा इति अस्ति, अतः इदानीं तस्य
राज्ञः प्रजाजनाः गुणिनः, धर्मनिष्ठाः, कर्मशूराः च आसन्.
इदानीं तत्र प्रजाजनः कीदृशः अस्ति?
प्रजाजनः गुणी, धर्मनिष्ठः, कर्मशूरः अस्ति. बहुवचने गुणिनः, धर्मनिष्ठाः, कर्मशूराः भवन्ति.
समीचीनम्, अस्तु अग्रे.
कृषकाः, वणिजः, भिषजः, शिल्पिनः,
कुविन्दाः, चर्मकाराः,
सर्वेपि धर्मानुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति स्म.
तत्र अस्तु, तत्र पुनः तत्र क्रियापदं किम् अस्ति तत्र?
तत्र सर्वेपि निर्वहन्ति इति
क्रियापदं, सर्वेपि निर्वहन्ति. किं निर्वहन्ति?
सर्वेपि किं निर्वहन्ति इत्युक्ते निजकर्माणि.
निजकर्माणि इत्युक्ते निजकर्माणि इत्युक्ते तत्र कृषकः, कृषकस्य कर्म किम् अस्ति?
स्वधर्म,
हा स्वकर्म अथवा स्वधर्म इति. तत्र यत् कार्यं, यत् कार्यं कृषकः साधारणतया करोति तद् निजकर्म इति. हा, अतः कृषकः कृषिकार्यम् अपि, वणिजः वाणिज्यं,
वाणिज्यं
वैद्यं.
यैः किं करणीयं
तदेव यदि कुर्वन्ति
आसन्,
हा इति सन्ति चेत् अत्र अस्मिन् राज्ये तादृशः, तादृशी परिस्थितिः
प्रजाजनाः आसन्.
तत्र
अपि च तत्र
निर्व्याजम् इति कोऽपि वक्तुम् इच्छति वा? निर्व्याजम् इति किम् अस्ति?
व्याजं मीन्स् रीज़न्, निर्व्याजं कोऽपि कारणं.
निर्व्याजम् इत्युक्ते वितौट् तत्र किम्,
वितौट् एनि
अनिमित्तम्,
आनेस्ट् इति तत्र निर्व्याजेन यत् कार्यं तत्र, यदि तत्र किं तत्र विषज वैद्यं करोति तत्र यत् सम्यक् दातव्यं तदेव सः ददाति, अन्यत् किमपि न ददाति तत्र. अतः तत्र निर्व्याजं, सः निर्व्याजं.
तर्हि व्याजः इति डिसानेस्ट् इति अस्ति वा महोदय? व्याजः
न जानामि भगिनि, न जानामि किन्तु तत्र तत्र निर्व्याजम् इति तत्र साधारणपदम् अस्ति. तत्र साधु, ते साधु सन्ति अथवा अवक्रः, प्रामाणिकः, हा प्रामाणिकः.
व्याजम् इति व्याजः, व्याजः हा सत्यं, व्याजः इति छलः अस्ति महोदय.
अस्तु अस्तु,
छलः इति
अस्तु, छलः
नीर् इति उपसर्ग अस्ति वा?
हा सत्यं सत्यं, हा सत्यं.
सिन्सियर् अपि अस्ति न महोदय?
हा, अतः साधु इति अथवा अवक्रः इति. अपि कुबिन्दः कः अस्ति?
कुबिन्दः कः?
वीवर्, वीवर् महोदय.
हा वीवर्, तत्र तन्तुवायः इति. अतः तत्र स्वस्य इति निजकर्माणि इत्युक्ते स्वस्य कर्माणि इति अपि तत्र निर्वहन्ति. निर्वहन्ति स्म इत्युक्ते तत्र तेषाम् उत्तरदायित्वं यद् अस्ति, येषां कार्याणां, येषां कार्याणाम् उत्तरदायित्वं तेषाम् अस्ति, तान् तानि कार्याणि सम्यक्तया ते सर्वे कुर्वन्ति
एकस्य विषये तत्र विस्मृतवान् महोदय, अध्यापकः इति.
हा तत्र, अस्तु अस्तु, हा किन्तु
गुरुकुलाः
हा अपि आसन्, सत्यं सत्यम्. अस्तु, अचर्मकारः तदपि जानीमः.
भिषजः तु दत्तं, भिषजः तु भिन्नभिन्न रूपेण भिषजः,
भिषजः इति वैद्यः किल,
तत् वैद्यः, वैद्यः
एव वैद्यः,
मनोवैद्यः अध्यापकः किल,
मनोवैद्यं ददाति वा
महोदय? कस्मिन्नपि विषये भवितुम् अर्हति.
सत्यं भगिनी, भवती यत् वक्तुम् इच्छति अहम् अहम् अङ्गीकरोमि, सत्यमेव. तत्र तत्र किं तत्र विद्या वैद्य, तत्र विद्या इति तत्र औषधम् इव एव अस्ति खलु?
अहम् एकवारं पठामि महोदय, इत्युक्ते किमर्थं डाक्टर् वैद्य इति संज्ञा भवति इत्युक्ते वैद्य तु सम्पूर्णज्ञानं शास्त्रविद् अस्ति इत्युक्ते तदेव डाक्टरि.
अस्तु 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 अस्तु,
इत्युक्ते अद्यतन तु केवल स्पेशलिस्ट् अस्ति इत्युक्ते सम्पूर्णज्ञानं तु नास्ति, तदेव वयं सर्वे
अस्तु भगिनि, हा हा हा, अस्तु अस्तु अस्तु, समीचीनं, हा हा हा, इदानीम् अङ्गीकर इदानीम् अवगच्छामि भगिनि, हा हा, समीचीनं भगिनि, हा हा, तत्र अस्मिन् विषये तत्र अहं तत्र एकं यद् श्रुतवान् तद् वदामि, तत्र टिबेटियन् ये सन्ति तेषां मध्ये तत्र वैद्यः यः कोऽपि अस्ति सः तु इदानीं न जानामि, किन्तु पूर्वं का परिस्थितिः आसीत् इत्युक्ते तत्र तेषां यः वैद्यः भवितुम् इच्छति सः दशवर्षाः वा अथवा विंशतिवर्षाः पर्यन्तं तत्र सः ध्यानं करणीयमासीत्, तदनन्तरमेव तत्र वैद्यस्य किं पठनं आरम्भं सः कर्तुं शक्नोति तस्मात् प्राक् न.
सत्यं महोदय.
हा अतः अतः सत्यं भगिनि, अस्तु इदानीम् अग्रे सरामः. अस्तु इदानीं तत्र शोभा भगिनी भवती तत्र हा अन्तिम अग्रिमवाक्यमपि पठति वा?
पठामि महोदय. अत एव सर्वसम्पदा अनुगृहीतम् आसीत् तत् राज्यम्. अतः एव तत्र सर्वसम्पत् इति स्त्रीलिङ्गे अस्ति हलन्तशब्दं, तस्य सम्पद् इति अपि भवति, अपि च तस्य तृतीया विभक्तौ सम्पदा इति भवति. तया सम्पदया अनुगृहीतम् आसीत् तत्र सम्पत् इत्युक्ते सर्वे जनाः तत्र प्रामाणिकाः अपि कर्मयोगिनः सन्ति. तदेव तस्य राज्यस्य सम्पत् इति.
तत्र सम्पदा अनुग्रहीतम् अथवा सम्पदा युक्तं सम्पद् युक्तं राज्यम् इति अपि तत्र वक्तुं शक्नुमः. अनुग्रहीतं सम्पदा युक्तम् अथवा सम्पदा अनुग्रहीतं राज्यं तत् राज्यम् आसीत्. अनुगृहीतम् इति पदं किम् अस्ति? अनुग्रहीतं किम् अस्ति?
तत्र ग्रहणे एव, किन्तु
तत्र अनुग्रहीतं किम् इत्युक्ते पदस्य अर्थः न, तत्र किम् अनुग्रहीतम् अस्ति? तत्र रामः उत्तमः इति अस्ति चेत् उत्तमः कः इत्युक्ते रामः उत्तमः अस्ति.
राज्यम्
अनुग्रहीतम् अस्ति अतः तत्र नपुंसकलिङ्गरूपं
नपुंसकलिङ्गं.
तावदेव, समीचीनं भगिनि. अस्तु अग्रे धन्यवादः. अस्तु अग्रे अग्रे तत्र लक्ष्मी भगिनी अग्रे पठति वा?
महोदय एकः प्रश्नः अस्ति, सर्वसम्पदा इति तृतीया विभक्ति वा तत्र?
सत्यं.
तर्हि सर्वसम्पदा किं गृहीतम् यदि तृतीया, तर्हि तस्य कारणम्
अनुगृहीतं तत्र तद् अस्ति इति, तत्र युक्तम् इति, तेन युक्तम् इत्युक्ते तद् अस्ति इति, तेन युक्तं तत्र पुस्तके तत्र किं कोष्टकं कोष्टकेन युक्तं पुस्तकम्, अनेकाः कोष्टकाः तत्र कोष्टकानि अनेकानि सन्ति इत्युक्ते कोष्टकैः युक्तं पुस्तकम् इति वदामः. तत्र सः इति अस्ति खलु तृतीया, सः अस्ति चेत् तृतीया, तत्र तेन सह गच्छति इति तादृश अर्थे तत्र युक्तम् अतः तृतीया. तत्र सर्वसम्पदा अनुग्रहीतम् अथवा सर्वसम्पदा युक्तम् इति अपि वक्तुं शक्नुमः तत्र.
अत्र कर्मणि प्रयोगः भवति वा?
हा तदपि वक्तुं शक्नुमः. हा अनुग्रहीतम् आसीत् तद् राज्यं.
कर्मणि न अस्ति वा महोदय तत्र?
कर्मणि अपि वक्तुं
तत्र किमर्थं यथा जलेन कूपः पूरितम् अस्ति इति तत्र
तादृश
अस्ति तत्र
तादृशं चिन्तयितुं शक्नुमः. समीचीनं भगिनि. हा अस्तु अग्रे तत्र
सर्वसम्पदा इत्युक्ते सर्वधनेन वा यत् किमपि धनम् आसीत्?
हा सम्पद् इत्युक्ते तत्र धनमपि अस्ति अन्यत् अपि अस्ति धनम् इति
बुद्धिमान् जनाः
सर्वं. हा सत्यं सत्यं भगिनि. अत्र तत्र सम्पद् इति पदस्य सम्पदः अर्थः तु विशालः अस्ति, किन्तु इदानीं तत्र सम्पद् इत्युक्ते केवलं तत्र एकं तत्र धनम् इति इदानीं
पूर्वस्मिन् काले महोदय गोसम्पत् अपि सम्पत् इति
सम्पत् इति सत्यं
मन्यते
सत्यं भगिनि.
समृद्धिः इति वक्तुं शक्यते महोदय, समृद्धिः
सर्वप्रकारस्य
समृद्धि तत्र आसीत्. सत्यं भगिनि, समीचीनम्. अस्तु, अग्रे लक्ष्मी भगिनि.
अस्तु महोदय. सरितः सरांसि च जलपूर्णानि भवन्ति स्म. सरितः, सरितः षष्टिविभक्ति. एवं प्रथमविभक्ति बहुवचनं.
सरितः किमस्ति? षष्टि
सरित् सरितः सरित् सरितौ सरितः
षष्टि.
सरित् स्त्रीलिङ्गपदम्.
इदानीं तत्र सरितः
बहुवचनरूपम्.
सरितः,
सरितः सरांसि, सरः, सरस्, सरस् इति सकारान्त
नपुंसकलिङ्गपदं.
सरः, सरसि, सरांसि,
सरसि
बहुवचनं.
जलपूर्णानि, सरसि जलपूर्णानि. तत्र सरांसि कीदृशानि? तत्र जलपूर्णानि, जलेन पूर्णानि सन्ति. अतः जलपूर्णानि सन्ति सरांसि. तादृशं, तादृशानि सरांसि भवन्ति स्म तस्मिन् राज्ये. तत्र सरितः जलपूर्णा, सरितः इति तत्र जलपूर्णाः आसन्, अपि सरांसि जलपूर्णानि अपि आसन्. अग्रे
फलपूर्णेषु शाकिषु पक्षिणः महत्या मुदा विहरन्ति स्म.
तत्र तत्र
फलपूर्णेषु
विहरन्ति स्म. तत्र के विहरन्ति
स्म? पक्षिणः, पक्षिणः, पक्षिन् शब्दस्य
पक्षिणः विहरन्ति स्म. पक्षिणः कर्तृपदं. तत्र मुदा, 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 मुदा
इत्युक्ते,
किन्तु तत्र महत्या मुधा इति तत्र तृतीया विभक्ति अस्ति. तत्र स्त्रीलिङ्गे अस्ति तत्रापि. तत्र महता सन्तोषेन अपि तत्र वक्तुं शक्नुमः खलु. महती तत्र, महत्या मुदा इति अस्ति.
महती मुदा इति न वक्तुं शक्यते वा महोदय? महत्या मुदा इति, मुदा तु प्रथमा विभक्तौ अस्ति किल तत्र?
नो, न, 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 पुनः तत्र दकारान्तपदं, पुनः दकारान्तपदम्. मुद् इति दकारान्तपदम् इति चिन्तयामि. दकारान्तस्त्रीलिङ्गपदं, यतोहि तत्र महती इति विशेषणम् अस्ति. अतः महत्या मुदः इति अस्ति. तत्र पुल्लिङ्गरूपं तत्र तत् किं, तत्र महान् सन्तोषः इति स्वीकृत्य महत् इति प्रातिपदिकं महान् इति पदस्य, अतः महता सन्तोषेण विहरन्ति स्म पक्षिणः. विहरन्ति स्म, कुत्र विहरन्ति स्म?
कुत्र विहरन्ति? फलपूर्णेषु शाकिषु.
शाकिषु इत्युक्ते?
शाकिषु तस्य विशेषणं, फलपूर्णेषु इति विशेषणं.
फलपूर्णेषु शाकिषु. तत्र शाकिषु इति प्रथमविभक्ति, शाकिन्
शब्दस्य सप्तमी बहुवचनरूपम्.
शाकिन् शाकि इति इत्युक्ते कः? तत्र शाखा तु ब्राञ्च् अस्ति, किन्तु शाकी इत्युक्ते कः?
वृक्षः.
वृक्षः, वृक्षः. तत्र यस्य शाखाः सन्ति सः शाकिन्. अतः वृक्षः शाकिन्. तत्र शाकी, शाकिनौ, शाकिनः, शाकिषु इति
किं पदं? पुल्लिङ्गपदं वा?
पुल्लिङ्गपदं भगिनि, पुल्लिङ्गपदं शाकिन्.
परन्तु पुल्लिङ्गपदम्,
पुल्लिङ्गपदं. फलपूर्णः शाकि, तत्र प्रथमविभक्तौ एकवचने फलपूर्णः वृक्षः अथवा फलपूर्णः शाकि. इदानीं सप्तमी बहुवचनं फलपूर्णेषु शाकिषु. अतः तत्र फल फलेन पूर्णः अस्ति वृक्षः अथवा वृक्षाः फलेन पूर्णाः सन्ति वृक्षाः तेषु वृक्षेषु अथवा शाखेषु पक्षिणः
विहरन्ति स्म
विहरन्ति अपि महता सन्तोषेण अथवा महत्या मुदा विहरन्ति स्म अग्रे
सर्वदिशः अपि जनाः तत् राज्यम् आगच्छन्ति स्म सर्वदिशः पञ्चमी विभक्ति
हा सर्वदिशः तत्र दिशः इति पदस्य प्रातिपदिकं दिक् इति प्रथमाविभक्ति
एकवचनं
समीचीनं भगिनि सकारान्तस्त्रीलिङ्गपदं हा दिशः इति तत्र सर्वादिशः अपि जनाः
सर्वदिशः तद् राज्यम् आगच्छन्ति स्म
तत्र कुतः आगच्छति इति वदामः खलु तत्र अत्र कुतः आगच्छन्ति सर्वदिशः अपि जनाः तत्र तद् राज्यम् आगच्छन्ति
स्म
अग्रे
ते तत्र रम्याणि भवनानि निर्माय तृप्तमनसा निवसन्ति स्म निवसन्ति स्म के निवसन्ति स्म
ते तत्र
आगच्छन्ति स्म ते तत्र रम्याणि भवनानि निर्माय तृप्तमनसा निवसन्ति स्म तृप्तमनसा तृतीया विभक्ति तृप्तमनसा तृतीया एकवचनरूपम्
तत्र भावः तत्र कथं निवसन्ति स्म इत्युक्ते भावः तत्र तृप्तमनसा निवसन्ति स्म हा इदानीं तत्र भवनानि निर्माय इति अस्ति तत्र भवनानाम् इति स्थापयामश्चेत् किं भवति भवनानां
निर्माणं कृत्वा
हा निर्माणं कृत्वा तृप्तमनसा निवसन्ति स्म अपि रम्याणां भवनानां निर्माणं कृत्वा तृप्तमनसा निवसन्ति स्म इति समीचीनं भगिनि धन्यवादः
क्षम्यतां महोदय एकः प्रश्नः सर्वदिशः अपि इति एकवचने अस्ति वा एकवचने एव अस्ति
एकवचने अस्ति भगिनि तत्र
परन्तु सर्व इति अस्ति तत्र बहुवचनं भवितुम् अर्हति न वा
तत्र आङ्ग्लभाषायाम् आल् सैड्स् इति अस्ति किन्तु अत्र सर्वदिशः इति
एकवचने
सर्वस्मात् इति अस्ति सर्वस्मात् सर्वस्मिन् सर्वस्य
फ्रोम् आल् डैरेक्षन्स् दिग्भ्यः इति
दिशः तु बहुवचनवन्तं रूपम् अस्ति दिक् दिशौ दिशः
किन्तु तत् प्रथमविभक्तिरूपम् अस्ति अत्र पञ्चमी विभक्ति अपेक्षितम्
अतः फ्रोम् आल् डिरेक्षन्स् देन् इट् शुड् बि दिग्भ्यः
न तत्र सर्वदिशः इति एव अस्ति तत्र
दिशः दिग्भ्यां दिग्भ्यः इति पञ्चमी रूपाणि
एकवचने अस्ति पञ्चमी एकवचनं समीचीनमेव सर्वदिशः प्रश्नः समीचीनं भगिनि शुभदं भगिनि किन्तु संस्कृते एतद् एव रूपं
तर्हि तत्र समस्तपदम् इति चिन्तयामि महोदय सर्वेषु दिक्षु
सर्वासु
सर्वासु
अथवा तत्र यदि सर्वासु दिक्षु इति तु सप्तमी भवति तत्र किन्तु तत्र पञ्चमी तु किं भवति सर्वाभ्यः दिग्भ्यः इति किं तादृशं किमपि अस्ति सर्वेभ्यः दिग्भ्यः इति किमपि अस्ति तादृशं
महोदय सर्वाणि रूपाणि विभक्तिरूपाणि तत्रैव भवति वा महोदय यथा सर्वदिशः पञ्चमी अस्ति चेत् सर्वदिशे चतुर्थी अस्ति वा
सर्वदिशः किं भगिनि
न अत्र सर्वदिशः पञ्चमी एकवचनरूपम् अस्ति. किमर्थं दिशः तु पञ्चमी एकवचन अस्ति, किन्तु चतुर्थी विभक्ति दिशे इत्युक्ते सर्वदिशे अपि चतुर्थी एकवचनरूपं.
तद् तद् तत् पदं तु अस्ति भगिनि, तत्र तस्य उपयोगं कुत्र इति तत्र द्रष्टव्यम् अस्ति. किन्तु अत्र प्रथम तत्र पञ्चमी एकवचनं समीचीनम् इति चिन्तनम् तत्र केवलम् अत्र प्रयोगः कर्तुं शक्यते इति तावदेव.
अवगतम्.
अस्तु अस्तु तर्हि इदानीं तत्र अस्तु तत्र किं केवलम् एकं निमिषं यावत् अस्ति. अस्तु अतः तर्हि तत्र स्थगयामः. अग्रिमे वर्गे तत्र किं कुर्मः इत्युक्ते तत्र भगवद्गीतायाः श्लोकाः पूर्वस्मिन् पुटे ये श्लोकाः सन्ति तान् परिशील्य यदि सर्वे आगच्छन्ति चेत् सुलभः भवति वर्गस्य कार्यम्. अपि तदनन्तरं एषः पाठः ये अस्ति तस्मिन् अग्रे गन्तुं शक्नुमः. अपि अस्मिन् पाठे अपि तत्र अनेकाः भगवद्गीतायाः श्लोकाः सन्ति, प्रथम अभ्यासः, तत्रापि किञ्चित् परिशीलनम् अपेक्षितम्. अस्तु तर्हि
प्रश्न तत्र निर्माय अर्थः कः महोदय अत्र
निर्माणं कृत्वा इति
जनाः
भवनानां निर्माणं कृत्वा
कर्तुं
कृत्वा
किन्तु कर्तुं तत्र नगरे आगच्छन्ति इति तदनन्तरमपि ते तत्र रम्याणि भवनानि निर्माय इत्युक्ते ल्यप् अस्ति इत्युक्ते भूत अत्र तु भूतकालार्थकः किन्तु इत्युक्ते जनाः सर्वदिशः जना
तत्र आगच्छन्ति, तत्र आगत्य किं कुर्वन्ति तत्र तत्र भवनानां निर्माणं कृत्वा
कुर्वन्ति. अस्तु
तदनन्तरं तत्र तत्र तृप्तेन निवसन्ति. अस्तु अस्तु भगिनि. अस्तु तर्हि तत्र वंशीसुधा भगिनी भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनि.
आं महोदय. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. ॐ गुरुभ्यो नमः. धन्यवादः महोदय.
धन्यवादः भगिनी. धन्यवादः सर्वेभ्यो नमः. सर्वेषां
धन्यवादः.